शरण उद्धार श्री भगवान वाच वेदांतु ते गोह्यतम तव क्ष्याम्यनसूयवे ज्ञानं विज्ञानसहितं यज्ञात्वा मोक्षसे शुभात् राजविद्या राजगोह्यं पवित्रमिदमोत्तमम् प्रत्यक्षावगमं धैर्यं सुसुखं कर्तुमव्ययम् अश्रद्धधानः पुरुषा धर्मस्यास्य परन्तप अप्राप्य मामे वर्तन्ते मृत्यु संसारवर्त्मनि मया ततमिदं सर्वं जगदव्यक्तमूर्तिना मस्तानि सर्वभूतानि न साहं तेष्वस्थित न च मस्तानि भूतानि पश्य मे योगमैश्वरम् भूतभृन्न च भूतस्थो ममात्मा भूतभावना यथाकाशस्थितो नित्यं वायुः सर्वत्र गोमहान् तथा सर्वाणि भूतानि मस्तानीत्युपधारय सर्वभूतानि कौन्तेय प्रकृते यान्ति मामिकाम् कल्पक्षये पुनस्तानि कल्पादो विसृजाम्यहम् प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः भूतग्राममिमं तृष्णामवशं प्रकृतेर्वशात् न च मां तानि कर्माणि निबध्नन्ति धनञ्जय उदासीनवदासीनमसक्तं तेषु कर्मसु मयाध्यक्षेण प्रकृति श्रूयते सचराचरम् हेतुनानेन कौन्तेय जगद्विपरिवर्तते अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् परं भावमजानन्तो मम भूतमहेश्वरम् मोघाशामोघकर्माणो मोघज्ञानाविचेतस राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिता महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिता भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् सततं कीर्तयन्तो मां यतन्तश्चदृढव्रता नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ज्ञानयज्ञेन चाप्यन्ने यजन्तो मामुपासते एकत्वेन पृथक्तेन बहुधा विश्वतो मुखम् अहं क्रतुरहं यज्ञ स्पृधाहमहमौषधम्। सदा मंत्रो हमहमेवाज्य महमग्निरहमभूतम् पिताहमस्य जगतो माता धाता पितामह वेद्यं पवित्रमङ्कार ऋक्सामयजुरेव च गतिर्भर्ता प्रभु साक्षी निवास शरणं सुरे प्रभव प्रलयस्थानं निधानं बीजमव्ययम् तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च अमृतं चैव मृत्योश्च सरसच्चाहमर्जुन चैविद्या मां सोमपापूथ पाप यजीरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ते पुण्यमासाद्य सुरेन्द्रलोक मस्तन्ति दिव्यान्दिनिदेवभोग ते तं भुक्त्वा स्वर्गलोकं विशालम् क्षीणे कोल्ये मर्त्यलोकौ विशन्ति एवं त्रयी धर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते अनन्या चिन्तयन्तो मां ये जनाः पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहं येऽप्यन्यदेवता भक्त्वा यजन्ते श्रद्धयान्विता तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च न तु मामभिजानन्ति तत्तेनातस्यवन्ति ते यान्ति देवव्रता देवान् पितेन्यान्ति पितृव्रता भूतानि यान्ति भूते च यान्ति मद्यादिनो विमान् पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् शुभाशुभफलैरेवं मोक्ष्यसि कर्मबन्धनैः संन्यासयोगयुक्तात्मा विमुक्तो मापुकैष्यसि समूहं सर्वभूतेषु मे द्वेष्योऽस्ति न प्रिय ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् अपि से सुदुराचरो भजते मामनन्यवा साधुरेव समन्तव्य सम्यग्वसितो हि स क्षेप्रम् भ भवति धर्मात्मा शाश्वत शान्तिं गच्छति। कौन्तेय प्रतिजानी न मे भक्तः प्रणश्यति। मां विपार्थव्यपाश्रित्य ये स्युः पापयोनय। श्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्। किं पुनर्ब्राह्मणाः पुण्या भक्तराजर्षदस्तथा। अनेत्यमसुखं लोक इमं प्राप्य भजस्व मां। मन्मना भव मद्भक्तो मत्याजे मां नमस्कुरु। मामैवैष्यसि योक्तैव मात्मानं मत्परायण। ॐ तत्सत्श्रीमद्भगवद्गीतासुविद्यायां योगशास्त्रे श्रीकृष्णानुवादे राजविद्याराजगुह्यूनां नमः।